Lesson 9, Exercise 1, pages 83 and 84. Ratrau Munir Nagari Magachat. Tatrasa Nrupasya Prasada Magachat. Prasadat Bahir Bhumau Chasidat. Nrupasya Dasastam Munim Apashyat. So chintayat ka eshotra prasadat bahistithati iti sadaso munim prati agachat avadat cha kastvam kutotra nrupasya prasadat bahissidasi tvam nrupat kimichhasi iti tataha samunir dasam avadat he dasa aham तव नृपस्य गुरुर् भवामि त्वं नृपाय कथय तव गुरुः प्रासादात् बहिस्तिष्ठति इति दासस्तद् नृपाय अकथयत् नृपः प्रासादात् बहिरगच्छत् गुरुं चापश्यत् स गुरुमवदत् हे गुरु नमस्ते त्वं ममातिथिः मम प्रासादे अहम् त्वाम् पूजयेयम् तुभ्यम् कुसुमानि फलानि च यच्छेयम् मम भक्त्या त्वम् तुष्येः इति ततः स नृपस्तम् मुनिम् प्रासादे अनयत् स तम् तत्रापूजयत् नृपो भार्यामवदत् हे भार्ये एष मे गुरुः तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः स तुष्येत् यदि स तुष्येत् तर्हि आवयोः सुखं भवेत् दुःखं च नश्येत् इति ततः सा भार्या भक्त्या तं मुनिमनमत् अपूजयत् च स मुनिस्तयोर्भक्त्या तुष्यत् सो वदत् हे नृप तव भक्त्याहमतुष्यम् त्वं यदिच्छसि तत् ते यच्छेयम् इति स नृपो वदत् हे गुरो अहम् धनमिच्छामि यद् अहम् स्पृशेयम् तत् कनकम् भवतु इति गुरुरवदत् मम शक्त्या यत् त्वं स्पृशेस्तत् कनकम् भवेत् इति नृपः सुखेन भार्यामस्पृशत् तदैव सा भार्या कनकमभवत् भूमौ चापतत् स नृपो गुरुमवदत् हे गुरो किमेतत् कुतो मम दुःखम् इति गुरुरवदत् हे नृप यतस्त्वं कनकाय अस्पृहयः ततस्त्वं दुःखमविन्दः यदा त्वं धनमचिन्तयः तदा तव मतिरनश्यत् यदा तव मतिरनश्यत् तदा त्वमेव तव अरिः अभवः कनकं मा चिन्तय ईश्वरमेव चिन्तय यदि त्वमीश्वरं चिन्तयेः तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् इति ततः स नृपो भूमौ असीदत् भक्त्या ईश्वरमनमत् ईश्वरस्य शक्तिं चाशंसत् तस्य भक्त्या ईश्वरो तुष्यत् तस्य च भार्यायै जीवनमयच्छत् काकास्तरौ असीदन् ते चञ्चुभिः फलान्यखादन् धेन्वाश्चञ्चुर्न भवति वधूः श्वश्रुवाः शक्तिम् नाबोधत् ततः सा दुःखमविन्दत् नृपस्य मित्रम् कविर्भवति यदि जनकः शिशुम् ताडयेत् तर्हि स शिशुस्तम् जनकम् पशुम् चिन्तयेत् वीरो रीणां तनुः शस्त्रेण कृन्ततु वयं तस्य शक्तिं शंसेम। फलानां राशौ रेणवः पतन्ति तानि फलानि यूयं मा खादेत। यो नरो मम धनमचोरयत् तमहं रात्रौ रज्ज्वा अतुदम्।